कवित्वा श्रीमिश्रीं करणनिपुणौ रक्षणचनौ विपन्नानां श्रीमन् नलिनमसृणौ शोणकिरणौ मुनीन्द्राणामन्तः करणशरणौ मन्तशरणौ मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ परस्मात् सर्वस्मात् तपि च परयोर्मुक्तिकरयोः न कश्रीभिर्ज्योत्स्ना कलिततुलयोस्ताम्रतलयोः निलीये कामाक्ष्याम् निकमनुतयोर्नाकिनतयोः निरस्तप्रोन्मीलन् नलिनमदयोरेव पदयोः स्वभावादन्योन्यम् किसलयमपीतं तव पतं म्रतिं न शोनिं न भगवति तदा ते सदृशतां वने पूर्वस्येच्छा सदतमवने किं तु जगतां परस्येतं वेतः स्फुरति हृति कामाक्षि सुतियाम्।